ईशानो देवस्थना युद्धधातु तस्मै चोमिहविषणम् कृतेन विन्दायमानः शरीरस्य मध्यात्रो समानो धर्मरुचिर्य आगाय समुद्युपाशानमनुद्यघोरादिरायुषेण नमद्धु देवः ब्रह्मज्योतिर्ब्रह्मपत्नेषु गर्भम् यमादधा पुररूपम् जयन्तम् सुवर्णनम् भग्रहमर्कमर्चन्तमायुषे वर्धयामो कृतेन श्रियम् लक्ष्मीमोपलामम् विकाङ्गाम् सञ्चेञ्चयाग्रसेनेऽद्युताहुः माम् विद्याम् ब्रह्मयोनिगम् स्वरूपामि आयुषे तर्पयामो कृतेन दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपाभिरूपाः ससूनवः समतयः सयोज्यायुषेणोकृतमुदञ्जन्ता दिव्यागणा बहुरूपाः पुराणायुश्चितो नः प्रमर्थन्तु वीरान् केभ्योद्भवामि बहुधा कृतेन मानप्रजारुन्धेशोबोधवीरान् एकम् पुरस्ताद्वीरम् बभूव यतो बभूव भुवनस्य गोपाः भुवनपुंसाम्बराये मनो अविक्रमिरायुषेन्मरुतोदसाध्यान् प्रभोर्यक्षान्गर्वाभिश्चन्द्रेश्च विश्वाय भृगोन् सर्वाभिश्चाग्निरसोऽथ सर्वान्मुख्यमन्त्रायुष्यामायामशश्वत् कृष्णात्मन्नो अन्तमः शर्मयच्छान्त्या प्रदे धारामधुश्च तमुच्छन्तु प्रदे अक्षयाम्।